निधनपतान्तिका जनमः ऊर्ध्वा जनमः ऊर्ध्वलिङ्गा जनमः हिरण्या जनमः हिरण्यलिङ्गा जनमः सुवर्णा जनमः सुवर्णलिङ्गा जनमः दिव्या जनमः दिव्यलिङ्गा जनमः भवा जनमः भवलिङ्गा जनमः शर्वा जनमः शर्वलिङ्गा जनमः शिवा जनमः शिवलिङ्गा जनमः ज्वला जनमः ज्वललिङ्गा जनमः आत्मा जनमः आत्मलिङ्गा जनमः परमा जनमः परमलिङ्गा जनमः एतत् सोमस्य सूर्यस्य सर्वलिङ्गस्य स्थापयति पारिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भवस्वमाम् भवोद्भवा जनमः वामदेवा जनमो ज्येष्ठा जनमः श्रेष्ठा जनमो रुद्रा जनमः काला जनमः कलविकरणा जनमो बलविकरणा जनमो बला जनमो बलप्रमथना जनमः सर्वभूतदमना जनमो मनोन्मना जनमः अघोरे एभ्योऽथ घोरे एभ्यो घोरघोरतरेभ्यः सर्वे एभ्यः सर्वशर्वे एभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतय उमापतये पशुपतये नमो नमः ऋतकम् सत्यम् पदम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् ऊर्ध्वदेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रः सन्महो नमो नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जाजमानम् च जते सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु तद्रुद्राय प्रचेतसे मीढुष्टभाजतव्यसे वोचे वशन्तमगुम् हृदे सर्वो ह्ये च रुद्रस्तस्मै रुद्राय नमो अस्तु यस्य वैकङ्कत्यग्निहोत्रः वणी भवति प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रतिष्ठित्यै कृणुष्वपाज इति पञ्च अदितिर्देवा गन्धर्वा मनुष्याः पितरोऽसुरास्ते चागम् सर्वभूतानाम् माता मेदिनी महता महीसावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वा भूता कतवा काजा सा सत्येत्यवृतेति वसिष्ठः आपो वा इदगम् सर्वम् विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽन्नपापो मृतपापः सम्राडापो विदाडापस्वदाडापश्छन्दागस्यापो ज्योतिगस्यापो जजोगस्यापः सत् पापः सर्वा देवता आपो भूर्भुवः सुवदापो आपः पुनन्तु पृथिवीम् पृथिवीभूता पुनातु माम् पुनन्तु ब्रह्मणस्पतिर्ब्रह्मभूता पुनातु माम् यदुच्छिष्टमभोज्यम् यत्त्वा दुश्चरितम् मम सर्वम् पुनन्तु मामापो सताम् च प्रतिग्रहग्रः स्वाहा अग्निश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् यदह्ना पापमकारिषम् मनसा वाचा हस्ताभ्याम् पद्भ्यामुदरेण शिष्या अहस्तदवलुम्पतु यत्किञ्च दुरितम् मयि इदमहम् माममृतजोनौ सत्ये ज्योतिषि जुहोमि स्वाहा सूर्यश्च मामन्यश्च मन्युपतजश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् यत्रात्रिजा पापमतारिषम् मनसा वाचा हस्ताभ्याम् पद्भ्यामुदरेण शिष्या रात्रिस्तदवलुम्पतु यत्किञ्च दुरितम् मदि इदमहम् मामृतजोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा ओमित्येकाक्षरम् ब्रह्म अग्निर्देवता ब्रह्म इत्यारिषम् कार्यत्रम् छन्दम् परमात्मम् स्वरूपम् सायुज्यम् विनियोगम् आजातु वरदा देवी अक्षरम् ब्रह्म संहितम् गायत्रीम् छन्दसा पातेदम् ब्रह्म जुचस्वमे यदह्नात् कुरुते पापम् तदह्नात् प्रतिमुच्यते यत्रात्रिजात् कुरुते पापम् तत्रात्रिजात् प्रतिमुच्यते सर्ववर्णे महादेवि सन्ध्या विद्ये सरस्वति ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानाम् धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरोऽङ्गायत्री मावाहयामि सावित्री मावाहयामि सरस्वती मावाहयामि छन्दर्जीरावाहयामि श्रिजमावाहयामि गायत्रीजागायत्री छन्दो विश्वामित्रऋषिः सविता देवताद्यर्मुखम् ब्रह्मा चिरो विष्णुर्हृदजकम् रुद्रः शिखा पृथिवीजो निः प्राणापानम् व्यानोदानसमानात प्राणाश्वेतवर्णा साङ्ख्याजनस गोत्रा गायत्री चतुर्विगुम् चत्यक्षदा त्रिपदा षट्कुक्षिः पञ्चचीरिषोपनगने विनियोग ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ नभः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धिजो जो नः प्रचोदयात् ओमापो ज्योतिरसोऽमृतम् ब्रह्म भूर्भुवः सुवरो उत्तमे शिखरे जाते भूम्याम् पर्वतमूर्धनि ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथा सुखम् स्तुतो मजा वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता आयुः पृथिव्याम् द्रविणम् ब्रह्म वर्चसम् मह्यम् दत्त्वा प्रजातुम् ब्रह्मलोकम् धृणिः सूर्य आदित्यो न प्रभावाद्यक्षरम् मधुक्षरन्ति तद्रसम् सत्यम् वै तत्र सपापो ज्योतिरसोऽमृतम् ब्रह्म भूर्भुवः सुवरो ब्रह्म मे तु वाम् मधु मे तु वाम् ब्रह्ममेव मधु मे तु वाम् यास्ते सोम प्रजावत्सोऽभिसो अहम् दुष्वप्नहन्दुरुष्यः यास्ते सोम प्राणागश्चाञ्जुहोमि त्रिषु पर्णपयाचितम् ब्राह्मणागदद्यात् ब्रह्म हत्याम् वा एते घ्नन्ति ये ब्राह्मणास्त्रिषु पर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधजा मधुमेधजा ब्रह्ममेव मधुमेधजा अज्ञानो देवसवितः प्रजावत्साभिः सौभगम् परा दुष्वप्रियगम् सुवा विश्वानि देवसवितर्दुरितानि परासुवा यद्भद्रम् तन्महासुवा मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः माध्वीर्नः सन्तोषधीः मधुनक्तमुतोषसि मधुमत्पार्थिवगम् रजः मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुवागुम् अस्तु सूर्यः माध्वीर्गावो भवन्तु नः य इमम् त्रिषु पर्णमजाचितम् ब्राह्मणाय दद्यात् धूणहत्याम् वा एते घ्नन्ति ये ब्राह्मणास्त्रिषु पर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधवा मधुमेधवा ब्रह्ममेव मधुमेधवा ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृध्रा नागस्वधितिर्वना नागम् सोमः पवित्रमत्येतिरे भन्ने हगम् सशुचिषद्वसुरन्तरिक्षसद्धोता वेदि चदतिथिर्दुरो नसत् दृषद्वरसदृतसद्यो वसदव्या गोजा ऋतजा अद्रिजा ऋतम् बृहत् ऋचेत्वा रुचेत्वा समिच्छ्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूजमानाः घृतस्य धारा अभिचाकशीमि हिरण्यजो वेतसो मध्य आसाम् तस्मिन् सुपर्णो मधुकृत्कुलादि भजन्नास्ते मधुदेवताभ्यः तस्या स देहरजः सप्ततीरे स्वधान्दुहाना अमृतस्य धारा य इदम् त्रिषु पर्णमजाचितम् ब्राह्मणाय दद्यात् वीरहत्याम् वा एते घ्नन्ति ये ब्राह्मणास्त्रिषु पर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ मेधा देवी जुषपादान आगा विश्वाची भद्रा सुभनस्य मान ृक्तान् बृहत्वदेव विदथे तु वीराः त्वजा जुष्ट ऋषिर्भवति देवि त्वजा ब्रह्मा गतश्रीरुतत्वजा त्वजा जुष्टश्चित्रम् विन्दते वसुसादो जुषस्वद्रविणो न मेधे मेधाम् इन्द्रो ददातु मेधान् देवी सरस्वती मेधाम् मे अश्विना बुभावा धत्ताम् पुष्करस्रजा अप्सरासु च मेधा गन्धर्वेषु च जन्मनः दैवीम् मेधा सरस्वती सामा मेधा सुरभिर्जुषता गत्वा आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या ऊर्जस्वती पयसा पिन्वमाना सामा मेधा सुप्रतीका जुषन्ताम् मयि मेधाम् मयि प्रजाम् मयि यज्ञस्तेजो दधातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियम् दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो दधातु